अथ तृतीयः पादः। मतुवसोरुसम्बुद्धौ छन्दसि अत्रानुनासिकः पूर्वस्य तु वा आतोटि नित्यम् अनुनासिकात्परोऽनुस्वारः समस्सुटि पुमः खञ्यम् परे नश्चव्यप्रशान् उभयथर्क्षु दीर्घादटि समानपादे नृन्पे स्वतवान् पायौ कानाम् व्रेडिते ढोढे लोपः रोरि खरवसानयोर्विसर्जनीयः रोस्सुपि भो भगो अघो अपूर्वस्य योषि व्योर्लघुप्रयत्नतरः शाकटायनस्य लोपशाकल्यस्य ओतोगार्ग्यस्य उञि च पदे हलिसर्वेषाम् मोऽनुस्वारः नश्चापदान्तस्य झलि मोराजिसमह्क्वौ हेमपरे वा न परे नः ङणोः कुक्टुक्षरे डस्सिधुट नश्च शितुक ङमो ह्रस्वादचिङमुन्नित्यम् मय उयो वो वा विसर्जनीयस्य सः शर्परे विसर्जनीयः वा शरे कुप्वोः कः पौचा सोपदादौ इणशः नमस्पुरसोर्गत्योः इदुदुपधस्य चाप्रत्ययस्य तिरसोऽन्यतरस्याम् द्विस्त्रिश्चतुरिति कृत्वोऽर्थे इसुसोः सामर्थ्ये नित्यम् समासेनुत्तरपदस्थस्य अतः कृकमिकं स कुम्भपात्रकुशा कर्णीष्वनव्ययस्य अधः शिरसि पदे कस्कादिषु च छन्दसि वा प्राम्रेडितयोः कः करत्करति कृधि कृतेष्वनदितेः पञ्चम्याः परावध्यर्थे पातौ च बहुलम् षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु इडाया वा अपदान्तस्य मूर्धन्यः सहे साडस्सः इन्कोः नुं विसर्जनीयशर्व्यवायेऽपि आदेशप्रत्यययोः शासिवसिघसीनाञ्च स्तौतिण्योरेव षण्यभ्यासात् सस्विदिस्वदिसहीनाञ्च प्राक्सितादड्व्यवायेऽपि स्थादिष्वभ्यासेन चाभ्यासस्य उपसर्गात्सुनोति सुवतिस्यति स्तौति स्तोभति स्थासेन यसेध सि च सञ्जस्वञ्जाम् सदिरप्रतेः स्तन्भेः अवाच्चालम्बनाविदूर्ययोः वेश्च स्वनो भोजने परिनिविभ्यः सेवसितसयसिवुसः सुट्स्तु स्वञ्जाम् शिवादीनाम् वाड्व्यवायेऽपि अनुविपर्यभिनिभ्यस्यन्दतेरप्राणिषु वेस्कन्देरनिष्ठायाम् परेश्च परिस्कन्दः प्राच्यभरतेषु स्फुरति स्फुलत्योर्निर्निविभ्यः वेस्कब्धातेर्नित्यम् इणः शीध्वम् लुङ्लिटाम् धोङ्गात् विभाषेटः समासेऽङ्गुलेः सङ्गः भीरोस्थानम् अग्नेस्तुत्स्तोमसोमाः ज्योतिरायुषस्तोमः मातृपितृभ्याम् स्वसा मातुः पितुर्भ्यामन्यतरस्याम् अभिनिसस्तनः शब्दसंज्ञायाम् उपसर्गप्रादुर्भ्यामस्तिर्यच्परः सुविनिर्दुर्भ्यः सुपिसूतिसमाः निनदीभ्याम् स्नातेः कौशले सूत्रम् प्रतिष्णातम् कपिष्ठलो गोत्रे पृष्ठोऽग्रगामिनि वृक्षासनयोर्विष्टरः छन्दो नाम्नि च गवियुधिभ्याम् स्थिरः विकुशमिपरिभ्यस्थलम् अम्बाम्बगोभूमिसव्याप द्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमे बर्हिर्दिव्यग्निभ्यस्थः सुषामादिषु च एति संज्ञायामगात् नक्षत्राद्वा ह्रस्वात्तादौ तद्धिते निसस्तपतावनासे वने युष्मत्तत्ततक्षुष्वन्तः पादम् यजुष्ये केषाम् स्तुतस्तोमयोश्छन्दसि पूर्वपदात् सुयः सनोतेरनः सहेः पृतनर्ताभ्याञ्च नरपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् सात्पदाद्योः सिचोयङि सेधतेर्गतौ प्रतिस्तब्धनिस्तब्धौ च सोढः स्तम्भुसिवुसहां चङि सुनोतेऽस्य सनोः सदेः परस्य लिटि निव्यभिभ्योऽड्व्यवाये वा छन्दसि इति तृतीयः पादः।